अथ नवग्रहस्तोत्रम् जपाकुसुम संकाशं काश्यपेयं महाद्युतिं तमोरिं सर्वपापग्नं प्रणतोस्मि दिवाकरं दधिशंख तुषाराभं क्षीरोदाल्णवसंभवं नमामि शशिनं सोमं शंभोर्मुकुटभूषणं धरणी गर्भसंभूतं विद्युत्कांति समप्रभं कुमारं शक्तिहस्तं तं मंगलं प्रणमाम्यहं प्रियंगूकलिकाश्यामं रूपेण प्रतिमं बुधं सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहं देवानां च ऋषीणां च गुरुं कांचन सन्निभं बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं हिमकुंद मृणालाभं दैत्यानां परमं गुरुं सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहं नीलांजन समाभासं रविपुत्रं यमाग्रजं छायामार्तंड संभूतं तं नमामि शनैश्चरं अर्धकायं महावीर्यं चंद्रादित्य विमर्दनं सिंहिका गर्भ संभूतं तं राहुं प्रणमाम्यहं पलाश पुष्प शंकाशं तारकाग्रहमस्तकं रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं यदि व्यास मुखोत्कीर्तं यः पठेत् सुसमाहितः दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति नरनारी नृपाणां च भवेत् दुःस्वप्ननाशनम् ऐश्वर्यमतुलं तेषाम् आरोग्यं पुष्टिवर्धनं ग्रहनक्षत्रजापीडास्तस्कराग्निसमुद्भवाः ताः सर्वा प्रशमं यान्ति व्यासो ब्रूते न संशयः इति व्यासविरचितं नवग्रहस्तोत्रं सम्पूर्णम्।